एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः ध्रुव भट्टराई। नेकपा माओवादी केन्द्रस्य अष्टमी महाधिवेशने प्रस्तुते राजनीतिक प्रतिवेदन विधान संशोधन प्रारूपम् च आधृत्य समूहगत धारणाय अभिव्यक्तिक्रम यः सम्पन्नः। सञ्चाल्यमाने अन्तरसत्रे माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन प्रस्तुतम् राजनीतिक प्रतिवेदनम्। स्थायी समिति सदस्येन नेत्राचा देवगुरूङ इत्यनेन प्रस्तुतम् विधान संशोधन प्रारूपम् च आश्रित्य समूहगत धारणाय अभिव्यक्तिक्रमोऽसौ सम्पन्नोऽभवत्। समूहगत धारणाय अभिव्यक्तिक्रमस्य समाप्ते पश्चात् अन्तरसत्रे उत्थापितानाम् प्रश्नानाम् उत्तरम् अध्यक्ष प्रचण्डः अद्य ददाति। अद्य एकवादने प्रारम्भमाणे अन्तरसत्रे अनुशासन लेखा निर्वाचन योगानां प्रतिवेदनानि प्रस्तुयन्ते। एतेषां पारितीकरण अनु अध्यक्षस्य प्रचण्डस्य उत्तर प्रदान कार्यक्रम स्थिति माओवादी केन्द्रस्य प्रचार विभागस्य सचिव गोविन्द आचार्यः अज्ञापयत्। समूहगत धारणाय अभिव्यक्तेः क्रमस्य समाप्ति अनु यः दलस्य स्थायी समिति उपवेशस्य उपविष्टः आसीत्। उपवेशे अन्तरसत्रे उत्थापितेषु कश्चिन् महत्वपूर्णेषु प्रश्नेषु विमृष्टमिति माओवादी केन्द्रम् ज्ञापयति। स्वास्थ्य जनसंख्या मन्त्रालयेन तापाय प्रयोक्तव्यानां वैद्युतोपकरणानां प्रयोगे सावधानताम् अवलम्बितुम् अनुरुद्धम् वर्तते। आरष्टम् शैत्यवर्धनस्य क्रमे श्वास प्रश्वास समस्या भूतस्य मृत्यु समाचारणां प्राप्ते समये मन्त्रालयेन ह्यः सूचनां प्रकाश्य केवलं वायु संचरणस्य स्थाने वैद्युतोपकरणानि ज्वालयितुं तापद उपकरणानि प्रयोक्तुं च अनुरुद्धम् अस्ति। राष्ट्रपतिना विद्यादेवी भण्डारिणा सह नेपाल स्काउट संस्थाय बीटीसी पीटीसी प्रशिक्षणं प्राप्तवन्त। कर्णाली प्रदेशस्य स्काउट विद्यार्थिन ह्य शीतल निवास स्थिते राष्ट्रपति भवने अमिलन्। तदवसरे राष्ट्रपति भण्डारी एतेभ्यो विद्यार्थिभ्यो वर्धापन ज्ञापन पुरस्सरं देश विकासस्य यात्रायक्रमे अनुकूल योग प्रदानात्मकेषु यूनाम् उत्साह वर्धनात्मकेषु च कार्येषु सफलताय शुभकामनां व्यक्तवती। राष्ट्रपति भण्डारी नेपाल स्काउट संस्थाया नेतृत्वस्य सम्बन्धी सर्वोच्च न्यायालयेन पश्चात्तन समये विहितो निर्णयः आत्मना सम्मान्यते इत्यभासत। प्रधानमन्त्रिणा शेरबहादुर देउवाभिधेन सह डा गोविन्द केसी तेनेन ह्यो मिलित्वा शिक्षा स्वास्थ्य सम्बद्धानां विभिन्नानां याचनानां विषये ध्यानाकर्षणं कारितमस्ति। बालवाटार वर्तिनी प्रधानमन्त्री निवासे डा केसी तेनेन सहितेन समूहेन प्रधानमन्त्रिणा देउवाभिधेन मिलित्वा शिक्षा स्वास्थ्यस्य बीपी स्वास्थ्य विज्ञान प्रतिष्ठानस्य सर्वोच्च न्यायालयस्य निर्मला कुरुम इत्यस्य न्याय प्रदानस्य च विषयेषु ध्यानाकर्षणं कारितमिति प्रधानमन्त्रिणा स्वकीय सचिव भानु देउवा अज्ञापयत्। मेलने प्रधानमन्त्री देउवा डा केसी इत्यस्य उचिता याचनानां सम्बोधनाय प्रतिबद्धतां व्यक्तवान्। प्रधानमन्त्रिणे शेरबहादुर देउवाभिधेयाय नेपाली संस्कृति संरक्षण राष्ट्रिय महाभियानस्य प्रतिनिधिमण्डलेन ह्यो मिलित्वा आरष्टम् वर्धमानयो सांस्कृतिकाक्रमणस्य विकृतिस्य विषये ज्ञापितम् वर्तते। महाभियानस्य संयोजकस्य चलचित्रकर्मिणश्च मोहन निरौल इत्यस्य नेतृत्वे बालोटार स्थानम् गतेन प्रतिनिधिमण्डलेन देशस्य पुरातात्विक सम्पदाम् संस्कृतिस्य संरक्षण संवर्धनयो राज्यस्य पक्षतः विशेष ध्यानम् प्रदातुम् प्रयतितुम् च अभियाचितमस्ति। प्रधानमन्त्री शेरबहादुर देउवा वदति नेपालस्य विविधानां भाषा संस्कृति सभ्यतानां संरक्षणाय संवर्धनाय च सर्वकारः सहयोगं विदधाति। गुरूङ समुदायस्य लोसार पर्वण अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री देउवा अवदत् एतादृशै पर्वभि विभिन्नै धर्म संस्कृति सामुदायिक क्षेत्रेण सह आबद्धानां नागरिकाणां मध्ये परस्परं मेल सद्भाव सहिष्णुता सुदृढीकर्तुं साहाय्यं मिलति। कार्यक्रमे तमो छोज घी गुरूङ राष्ट्रिय परिषद अध्यक्ष रेशम गुरूङ नेपाल आदिवासी जनजाति महासंघस्य संघीय परिषद अध्यक्ष जगत बरामश्च विचारं प्राकटयताम्। नेपालगंज स्थितस्य भेरी चिकित्सालयस्य कर्मचारीवास गृह निवसन्त चत्वारो जना श्वास प्रश्वास समस्या मृता त्रयोजना अचेतावस्थायम् उद्धृताश्च सन्ति। चिकित्सालयस्य भण्डागार शाखायम् कार्यरतेन धनप्रसाद भट्टराई इत्यनेन सह तस्य परिवार सम्बन्धी जनाश्च मृता इति बाँके जनपदस्य प्रहरी परीक्षक श्यामकृष्ण अधिकारी अज्ञापयत्। कालीकोट जनपदस्य खाँडाचक्र नगरपालिकाया षष्ठवडा क्षेत्र निवासिन ते एकस्मिन्नेव प्रकोष्ठे सुप्ता आसन्। शैत्य अंगारम प्रज्वाल्य सुप्ते कारणेन श्वास प्रश्वास समस्या ते मृता इति प्रहरी अनुमिनोति। गृहमन्त्री बालकृष्ण खाँड कथयति पोखराय सौन्दर्यस्य फेवा प्रवृत्ति तडागानां च संरक्षणाय सर्वकार प्रतिबद्धो वर्तते। पोखरायां ह्यः प्रारब्धं त्रयोविंशं मार्ग महोत्सवम् उद्घाटयन् गृहमन्त्री खाँड फेवा तडागस्य संरक्षणाय प्राप्तानां प्रतिवेदनानाम् अधीत्य क्रियान्वयनं विधीयते इति प्रतिबद्धतां व्यक्तवान्। कोविड 19 महामारी परिपिधानस्य समये नेपालं प्रत्यावृत्तानां प्रतिवेशी चीन देशे अन्येषु देशेषु च अधीतानां एमबीबीएस स्तरस्य विद्यार्थिनां समस्या समाधास्यन्ते। शिक्षा विज्ञान प्रविधि मन्त्रालयेन ह्यः उपविष्टे मन्त्रिवर्ष उपवेशी समस्यानां समाधानाय प्रस्ताव प्रस्तुतोऽस्ति। चिकित्सा शिक्षा स्नातक स्तरे चीन प्रवृत्तिषु देशेषु 1600-1200 ख्रिष्टाब्दे तदनन्तरं च प्रविष्टानां विद्यार्थिनाम् अवशिष्टाध्ययनस्य प्रयोगात्मकाभ्यासस्य प्रशिक्षणाभ्यासस्य च समस्यानां समाधानाय प्रस्तावितमिति शिक्षा विज्ञान प्रविधि मन्त्री देवेन्द्र पौडेलः अज्ञापयत्। आराष्ट्रम् ह्यः अतिरिक्तेषु 144,102 जनेषु कोरोना विषाणु संक्रमणं पुष्टीभूतं वर्तते। ह्यः 28,700 जना संक्रमणात् मुक्ताः सन्ति। संक्रमणात् मुक्तानां जनानाम् अनुपात प्रतिशतम् 98% रस्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। ह्यस्तनावधि आराष्ट्रम् 44,871 जना एकान्तवासे स्थित उपचाररताः सन्ति इति मन्त्रालयस्य तथ्याङ्काः वर्तन्ते। हिमपातस्य कारणेन बुधवासरत अवरूद्ध सुदूर पश्चिमस्य सप्तानां पर्वतीय जनपदानां योजक भीमदत्त राजमार्ग ह्यः सञ्चालितो वर्तते। मार्ग महाशाखा कार्यालयस्य डोजर यानेन हिमस्य अपसारणम् अनु राजमार्ग सञ्चालित इति डोटी जनपद प्रहरी कार्यालय ज्ञापयति। एतस्य प्रदेशस्य पर्वतीय जनपदानां उच्च भूभागेषु हिमपात जायमानस्थिति प्रहरी ज्ञापयति। कवि शिरोमणि लेखनाथ पौड्यालस्य 38,000 जन्मजयन्ती ह्यः विभिन्नै साहित्यिक कार्यक्रमैसह सम्पन्ना वर्तते। जन्मजयन्ती अवसरे ह्यः त्रिमूर्ति निकेतनस्य अध्यक्षा इन्दिरा प्रसाई संचार ग्रामस्थितायं लेखनाथ पौड्यालस्य पूर्णाकृति प्रतिभायं माल्यं समर्पय श्रद्धाञ्जलिं अर्पितवती। 144,000 विक्रमाब्दे लब्जन जन्म कवि शिरोमणि पौड्यालः नेपाली साहित्य क्षेत्रे छन्दबद्ध कवि आध्यात्मिक मानवतावादी कवेश रूपेण सुपरिचितो वर्तते। पूर्व पश्चिम राजमार्ग अन्तर्गतस्य नारायणगढ़ बुटवल मार्गखण्डस्य विस्तारणे विभिन्न अवरोध उत्पन्न कारण प्रदर्श निर्माण पक्षेण अवधि प्रवर्धना याचितमस्ति।